राम गीता जी का पाठ दूसरा अध्याय श्लोक 41 से 50 तक। राम
वसुदेव सुतं देवं देवकी करमानं कृष्णं वन्दे जगद्गुरुं व्यवसायाकृकाबुद्धि प्रीतिः कुरुनन्दन बहुशाखायनन्तास्ते बुद्धयो व्यवसायिनां यामिमां पुष्पितां वासम् कामात्मान स्वर्गपरा जन्म कर्म फल प्रदा क्रिया विशेष बहुला भोगैश्वर्यगतं प्रति भोगैश्वर्यप्रसक्तानां तदावधिततेतवान् व्यवसायात्मिका बुद्धि समाधौ न विधीयते त्रैगुण्यविषया भेदा निस्त्रैगुण्यो भवाजुनो निर्द्वन्द्वो नित्यसत्त्वस्तु निर्योगक्षेमात्मना यावानार्थ उजपाने सर्वतः सम्प्लुतोदके तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः कर्मण्येवाधिकारस्य मा फलेषु कदाचन मा कर्मफलहेतुः मा ते सङ्गोस्वकर्मणि योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय सिद्ध्यसिद्ध्यो समो भूत्वा समात्वं योग उच्यते दूरे न ह्यवरं कर्म बुद्धियोगाधनञ्जय बुद्धौ शरणमन्वेक्ष कृपणाः फलहेतव बुद्धियुक्तो जहातीह गुहे सुकृतदुष्कृते तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् बुद्धियुक्तो जहातीह गुहे सुकृतदुष्कृते तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् वसुदेव सुतं देवं पंशजानुरमर्दनम् देवकी करमानन्दम् कृष्णं वन्दे जगद्गुरुं कृष्णं वन्दे जगद्गुरुं
हरे शरणं हरे शरणं हरे शरणं हरे शरणं हरि शरणं हरि शरणं हरि शरणं हरि शरणं हरि शरणं हरि शरणं हरे शरणम 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 हरे शरणम।